सर्वेषां पाणिनीव्याकरणवर्गं प्रति हार्दं स्वागतं. सम्प्रति प्रातस्मरणीयानां मुनीनां स्मरणं पश्चात् पाठस्य चिन्तनं भवति. महोदय एकवारं श्लोकान् स्मारयतु.
येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. येन धौता गिरः पुंसां विमलैः शब्दवारिभिः तमश्च अज्ञानजं भिन्नं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्.
धन्यवादः महोदय. अद्य नूतनपाठः आरभ्यते. धातुविज्ञानं नाम्ना पाठः आरभ्यते. अयं विषयः परिचितः एव. नूतनपाठस्य शीर्षकमस्ति धातुविज्ञानं, धातोः विज्ञानं. षष्टितत्पुरुषसमासः अस्ति. धातूनां प्रसङ्गे इदं विशेषज्ञानं ज्ञातव्यं. विज्ञानम् इत्युक्ते विशेषज्ञानं. तत्र ज्ञानम् इति पदं ल्युडन्तपदं. ज्ञाधातुतः ल्युट् प्रत्ययस्य योजनेन ल्युडन्तं पदं ज्ञानम् इति साधितं. ल्युडन्तानि नित्यनपुंसकलिङ्गपदानि. ज्ञानम् इत्यस्मिन् पदे ल्युट् इति प्रत्ययः अस्ति. तस्मिन् प्रत्यये अनुबन्धवर्णाः सन्ति. लकारस्य इतिसंज्ञा लशक्वतद्धिते इति सूत्रेण तस्य इतिसंज्ञा भवति. तस्य लोपः इत्यनेन लकारस्य लोपः भवति. टकारस्य इतिसंज्ञा हलन्त्यं सूत्रेण भवति. टकारः अपि अपगच्छति, तेन यु अवशिष्यते. यु इति कथनेन यकारः उकारः वर्णद्वयं वर्णसमुदायः तत्र अवशिष्यते. यु स्थाने अन आदेशः भवति युवोरनाकौ इति सूत्रेण. तत् सूत्रम् अङ्गाधिकारे अस्ति. अङ्गस्य इति एकम् अधिकारसूत्रमस्ति. युवोरनाकौ इति सूत्रेण यु स्थाने अन आदेशः भवति. यु इति कथनेन अनुनासिकयकारः अस्ति तत्र, किन्तु तस्य अनुनासिकयकारस्य इति संज्ञा न भवति. किमर्थं चेत् एकं प्रसिद्धं वचनमस्ति, प्रतिज्ञानुनासिक्याः पाणिनीयाः इति एकं वचनमस्ति. तेन अनुनासिकस्वरवर्णस्य एव इति संज्ञा भवति, न तु अनुनासिकहल् वर्णस्य. यद्यपि ल्युट् इत्यस्मिन् प्रत्यये यकारः अनुनासिकः अस्ति, तथापि तस्य अनुनासिकयकारस्य लोपः न भवति. तत्र यु इति वर्णसमुदायस्य स्थाने अन आदेशः भवति इति कृत्वा ज्ञायोगः अन ज्ञान इति प्रातिपदिकमस्ति. पश्चात् सुप्रत्ययस्य योजनेन नपुंसकलिङ्गे ज्ञानम् इति रूपं सिध्यति. विज्ञानम् इत्युक्ते विशेषज्ञानम्. अपि च पाणिनीयधातुपाठे औपदेशिकधातवः दत्ताः. औपदेशिकधातुतः नूतनधातोः निर्माणं करणीयम्. तिङन्तरूपसाधनवेलायां धातुः एव मूलरूपं, प्रकृतिः धातुः एव. तत्र धातुतः तिङन्तपदानि निर्मितानि. कृदन्तपदरूपसिद्धौ अपि धातुः एव प्रकृतिः अथवा मूलं. मूलधातुतः अथवा औपदेशिकधातुतः लौकिकधातोः निर्माणं कुर्मः. औपदेशिकधातवः सर्वे पाणिनिना उपदिष्टाः. पाणिनिना उपदिष्टाः धातवः एव औपदेशिकधातवः. औपदेशिकधातुषु केचन अनुबन्धवर्णाः सन्ति, ते अनुबन्धाः निष्कासनीयाः. औपदेशिकधातुतः तेषाम् अनुबन्धवर्णानां निष्कासनम् एव अस्माकं प्रथमं कार्यम्. उपदेशेषु अनुबन्धवर्णाः सन्ति इति वदन्ती अस्मि. उपदेशः इत्युक्ते न केवलं धातुः, प्रत्ययेषु आदेशेषु आगमेषु अपि अनुबन्धवर्णाः सन्ति चेत् तेषां निष्कासनम् एव अस्माकं प्रथमं कार्यम्. इति संज्ञाविधानम् अस्माकं प्रथमं कार्यम्. अथवा सानुबन्धधातुतः निरनुबन्धधातोः निर्माणम् एव अस्माकं कार्यं, तदेव इति संज्ञाकरणम्. उपदेशेषु अनुबन्धवर्णाः के, तेषाम् अभिज्ञानं कथं भवति, तान् वर्णान् कथम् अभिज्ञातुं शक्नुमः, ते अनुबन्धवर्णाः तत्र किमर्थं सन्ति, तेषां प्रयोजनमस्ति वा, अनुबन्धवर्णानां प्रयोजनानि कानि, एतत् सर्वं ज्ञातव्यम्. अयं विषयः तु परिचितः, अस्मिन् विषये किञ्चित् चर्चितमेव पूर्वम् अस्माभिः. एतत् सर्वम् अष्टाध्यायी इति ग्रन्थे दत्तमस्ति. अष्टाध्यायीग्रन्थः पाणिनिना विरचितः. अष्टाध्यायीग्रन्थे अष्ट अध्यायाः सन्ति. प्रत्येकस्मिन् अध्याये चत्वारः पादाः सन्ति. अष्टाध्यायीग्रन्थस्य प्रथम अध्यायस्य प्रथमपादात् आरभ्य अष्टमाध्यायस्य प्रथमपाद अन्तपर्यन्तं तस्य भागस्य नाम सपादसप्ताध्यायी. अष्टमाध्यायस्य द्वितीयपादात् आरभ्य अष्टमाध्यायस्य अन्तपर्यन्तं तत्र त्रयः पादाः सन्ति, तस्य नाम त्रिपादी. द्वितीयभागस्य नाम त्रिपादी, किन्तु इत्संज्ञाप्रकरणं प्रथमभागे अस्ति, सपादसप्ताध्याय्याम् अस्ति. अष्टाध्यायीग्रन्थस्य प्रथमभागे इत्युक्ते सपादसप्ताध्याय्याम् इत्संज्ञाप्रकरणमस्ति. प्रथमाध्यायस्य तृतीयपादे इत्संज्ञाप्रकरणमस्ति. प्रथमाध्यायस्य तृतीयपादस्य प्रथमं सूत्रमस्ति भुवादयो धातवः. तत् प्रथमं सूत्रमस्ति. तेन सूत्रेण किं भवति इत्युक्ते भुवादयो धातवः सूत्रेण भू आदयः धातवः धातुसंज्ञां प्राप्नुवन्ति. भुवादयो धातवः सूत्रेण धातुसंज्ञा दीयते, उपदिष्टधातवः धातुसंज्ञां प्राप्नुवन्ति. द्वितीयसूत्रमस्ति उपदेशे जुनुनासिक इत्. अस्मात् सूत्रात् आरभ्य उपदेशे जुनुनासिक इत् इति सूत्रात् आरभ्य तस्मिन् पादे अष्टमसूत्रपर्यन्तं तस्य लोपः इति सूत्रपर्यन्तं तत्र अष्टसूत्राणि सन्ति. इति संज्ञाप्रकरणे आहत्य अष्टसूत्राणि सन्ति. प्रकरणम् इत्युक्ते किम्? प्रकरणम् इत्युक्ते एकार्धप्रतिपादकग्रन्थांशः. एकार्धप्रतिपादकग्रन्थांशः एव प्रकरणम्. इति संज्ञाप्रकरणे इति संज्ञा विधायकसूत्राणि सन्ति. संज्ञाविधायकसूत्राणि इत्युक्ते तैः सूत्रैः इति संज्ञा विधीयते. इमानि सूत्राणि केवलं संज्ञासूत्राणि, तैः नामकरणं क्रियते, नामकरणं दीयते, इति संज्ञा दीयते. तत्र षट् सूत्राणि इति संज्ञाविधायकसूत्राणि सन्ति. एकम् इति संज्ञाविधायकवार्तिकमस्ति. सूत्राणि पाणिनिना रचितानि, किन्तु वार्तिकानि कात्यायनेन रचितानि. कात्यायनः वार्तिकानि रचितवान्, पतञ्जलिः महाभाष्यं रचितवान्. एकम् ईतसंज्ञाविधायकवार्तिकमस्ति. वार्तिकं किम् इत्युक्ते वयं पूर्वं दृष्टवन्तः एव, केवलं पुनस्मरणं. दृशिर् इति धातोः प्रसङ्गे अनुनासिक इकारः अन्ते रेपः अस्ति. द्वयोः वर्णयोः ईतसंज्ञा पृथक्तया अकृत्वा, पृथक्तया न करणीया, पृथक्तया अकृत्वा केवलं मिलित्वा एव तयोः इत् संज्ञा भवति. तत्र इरः इत् संज्ञा वाच्या इति एकं वार्तिकमस्ति. तेन वार्तिकेन दृशिर् इति औपदेशिकधातौ इत् संज्ञा भूत्वा दृश् इति लौकिकधातोः निर्माणं भवति. तदेव वार्तिकमस्ति, इत् संज्ञाविधायकवार्तिकम्. अपि च एकम् इत् संज्ञा निषेधकसूत्रमस्ति. न विभक्तौ तु स्माः इति सूत्रम् इति संज्ञा निषेधकसूत्रम्, इति संज्ञां निषेधयति. अपि च एकं लोपविधायकसूत्रमस्ति. लोपः अपि एकं कार्यमेव, लोपविधिः, लोपविधिः अपि कार्यमेव. लोपविधिः तस्य लोपः इति सूत्रेण भवति. आहत्य तत्र अष्टसूत्राणि सन्ति. अयं विषयः परिचितः, तदर्थम् उपरितनभागं त्यक्त्वा अभ्यासमपि कर्तुं शक्नुमः. अस्य पाठस्य अधोभागे अभ्यासः अस्ति. उपरितनभागं शीघ्रं परिसमाप्य अभ्यासमपि कर्तुं शक्नुमः. एतेषाम् अष्टानां सूत्राणाम् अवगमनं सम्यक् अवगमनमस्ति चेदेव केन सूत्रेण कीदृशवर्णस्य इति संज्ञा विधीयते, एतस्य अवगमनम् अस्माकं कृते आवश्यकम्. इत्संज्ञकवर्णानाम् अभिज्ञानम् आवश्यकम्. औपदेशिकधातुभ्यः अपि च प्रत्ययेभ्यः निरनुबन्धरूपं साधयितुं ज्ञानमस्ति चेदेव निरनुबन्धरूपं साधयितुं शक्नुमः. अतः इदानीं भवन्तः सर्वे करपत्रम् उद्घाटयन्तु. करपत्रमपि लिङ्क् प्रेषितवती. अन्यः विषयः अस्ति, माता दीक्षितपुष्पा विरचित पुस्तकमस्ति, महर्षिपाणिनि प्रणीतः अष्टाध्यायी सूत्रपाठः इति पुस्तकमस्ति. भवन्तः सूत्राणि द्रष्टुमिच्छन्ति चेत् येषां येषां पार्श्वे पुस्तकमस्ति ते सर्वे एतानि सूत्राणि द्रष्टुं शक्नुवन्ति. पुटसङ्ख्या अस्ति एकचत्वारिंशत् तमे पुटे इमानि इत्संज्ञाप्रकरणसम्बद्धसूत्राणि दत्तानि एकचत्वारिंशत् तमे पुटे सूत्राणि दत्तानि इच्छन्ति चेत् अवलोकयन्तु
अधुना भगिनी एकः संशयः भगिनी भुवादयो धातवः इति उक्तवती किल भू आदयः इति चेत् तत्र सन्धिः नागच्छति वा भुवादिगणः इति वदामः किन्तु अत्र भूवादयः धातवः इति अस्ति कथं पदच्छेदः भवति भू वा आदयः वा सूत्रे भूवादयः इति अस्ति किन्तु भुवादिगणः इति वदामः तयोः तत्र अक्षरे सन्धिः कथम् इति
तत्र सन्धिः नास्ति भगिनि भूवादयः इत्येव पुस्तकं पश्यन्ती अस्मि भूवादयः
अत्र टिप्पणीमध्ये अपि एवमेव अस्ति भूवादयः धातवः इत्येव किन्तु भुवादिगणः इति वदामः
आम्
तत् स्पेल्लिङ्ग् भिन्नमस्ति किल कारणं किं
चिन्तनीयं महोदय अहमपि सम्यक् न जानामि कोऽपि वदतु जानाति चेत् भूवादयो धातवः एव
महोदय क्षम्यतां वा इति धातु अस्ति वा
स्यात् किल
वा इति धातु अस्ति वा कुत्रापि पाणिनिना उक्त भू इति धातु वा इति अन्यधातु एवम् अस्ति वा कुत्रचित् अहं दृष्टवती न जानामि
महोदय भू इति धातु आदौ अस्ति इति कारणेन भूवादयः इति उक्तं वा
भगिनी सूचना अस्ति अहम् अष्टाध्याय्याम् अष्टाध्यायी डाट् काम् मध्ये सूत्रपाठे गतवती तत्र भू वा आदयः एव तत् तर्हि तथैव उच्चारणम् अपि तथैव करणीयमिति अहं मन्ये भ्वादयः इति नास्ति भूवादयः एव भू वा आदयः त्रीणि पदानि सन्ति तर्हि भ्वादयः इति वयं वदामः इति अहं मन्ये परन्तु भूवादयः एव वदनीयम् इति अहं चिन्तयामि मम चिन्तनं वितरणं कृतव्यम्
सर्वे चिन्तयन्तु अत्र सन्धिः नास्ति भू वा आदयः इत्येव अस्ति चिन्तनीयं पृष्ट्वा वदामि
अस्तु भगिनि
अत्र अष्टाध्याय्यां दत्तमस्ति वा अदादिगणस्य परस्मैपदी सकर्मक अनिट् धातु गतिगन्धनयोः अर्थं टु गो टु ब्लो टु मूव् रेपिड्लि एवम् अस्ति
नैव भगिनि परन्तु अत्र तु ओर् अस्ति ओ आर् अष्टाध्याय्याम् एव वा तत्र धातु न स्वीकरणीयं
यदा वयं चिन्तयामः भूधातु वादिगणीय अस्ति वा धातु अदादिगणीय अस्ति तदनन्तरम् आदि इति महोदयेन उक्तं पाणिनिमहोदयेन उक्तम् अतः भू अथवा वा अथवा अन्यगणीयधातवः इति अपि अर्थं कदाचित् भवितुम् अर्हति प्रायेण
वा धातुः गतिगन्धनयोः वाति
अदादिगणीय परस्मैपद सकर्मकधातु वा धातु
किमर्थम् एवं लिखितमस्ति सूत्रं चिन्तनीयमेव सर्वे चिन्तयन्तु
वाति वातः वान्ति इति रूपं
दर्शन भगिनी आरम्भं करोतु
हरि ओम्
आरम्भं करोतु सम्यक् न श्रूयते अत्र गीताञ्जलिभगिनी पठितुमिच्छति वा धातुविज्ञानं
धातुविज्ञानं ध्वनिमुद्रणम् इति एकं लिङ्क् अस्ति तदनन्तरं धातुभ्यः प्रत्ययाः यदा विधीयन्ते तदा सर्वप्रथमम् अस्माभिः किं चिन्त्यते नाम अनुबन्धाः के अपि च तेषां निष्कासनं कथं क्रियेत अनुबन्धः नाम यस्य इत्संज्ञा योग्यत्वं सः तर्हि इत्संज्ञा योग्यत्वं केषां भवति अस्य ज्ञानं भवति इत्संज्ञाविधायकसूत्रैः अष्टाध्याय्यां कश्चन प्रकरणं वर्तते इत्संज्ञा नाम्ना येन स सर्वम् इत् संज्ञा विधायक कार्यं क्रियते प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात् आरभ्य अष्टमसूत्रपर्यन्तम् इत् संज्ञाप्रकरणम् इति आहत्य तत्र षट् इत् संज्ञाविधायकानि सूत्राणि सन्ति. एकं वार्तिकम् अस्ति इत् संज्ञाविधायकम्. एकम् इत् संज्ञानिषेधकं सूत्रमस्ति. एकं लोपविधायकं सूत्रमस्ति. तत्रत्यैः षड्भिः सूत्रैः इत्संज्ञा विधीयते धातुषु प्रत्ययेषु आगमेषु आदेशेषु. यत्र कुत्रापि इत्संज्ञा भवति तत्र एभिः एव सूत्रैः. परिचयदत्तं संक्षिप्तरूपेण एकं परिचयदत्तम् इत्युक्ते यत्र कुत्रापि वयं धातुभ्यः प्रत्यय विधीयमानकार्यं कुर्मः स्म तदनन्तरं प्रथमकार्यम् इत्संज्ञा प्रकरणे किं किं कार्याणि भवन्ति तदेव वयं कुर्मः. इत्संज्ञाप्रकरणे इत्संज्ञाप्रकरणम् अष्टाध्याय्याम् अस्ति. इत्संज्ञा कुत्र अस्ति? प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात् आरभ्य अष्टाध्याय्यां मध्ये दत्तम्. तत्र प्रकरणे षट् इत्संज्ञा विधायकानि सूत्राणि सन्ति. तस्मिन् प्रकरणे एकं वार्तिकम् अस्ति अपि च एकम् इत्संज्ञानिषेधकं सूत्रमपि अस्ति अपि च एकं तस्य लोपः इति लोपविधायकं सूत्रम् अपि अस्ति. सर्वैः सूत्रैः योजयित्वा किं किं कार्याणि विधीयन्ते ते सर्वे दृष्ट्वा एव वयं अग्रे गच्छेम इति सूक्ष्मरूपेण भगिनि
तदेव साधु उक्तवती. अस्मिन् परिच्छेदे विधीयन्ते इति पदमस्ति. भवती वक्तुमिच्छति चेत् वदतु.
विधीयन्ते इत्युक्ते विधि इत्युक्ते किं मेथड्? विधीयन्ते इत्युक्ते तस्य योजनम्.
उत्तमम्. अहं किं वक्तुमिच्छामि इत्युक्ते वि उपसर्गपूर्वकः धा धातोः रूपमेव. धा धातुः जुहोत्यादिगणे अस्ति. दधाति इति तस्य रूपमस्ति किन्तु अत्र कर्मणि रूपं दत्तमस्ति. धा धातोः कर्मणि लट्रूपं धीयते. तत्र एकं विशिष्टं सूत्रमस्ति घूमास्था गापा जहाति सांहलि इति सूत्रेण धा धातोः प्रसङ्गे ईकारः आयाति इति कृत्वा धीयते इति रूपं. चिन्त्यते अपि कर्मणि लट्रूपमेव. चिन्तयति इति लट्लकाररूपमस्ति. तस्य कर्मणि रूपं चिन्त्यते. निष्कासनम् इति ल्युडन्तपदमस्ति. क्रियेत वदतु कीदृशं पदं
क्रियेत?
क्रियते कर्मणि रूपं विधिलिङ्गलकाररूपमस्ति. कर्मणि रूपं क्रियेत. क्रूधातोः कर्मणि लट्रूपं क्रियते. कर्मणि लट्रूपेषु आत्मनेपदिप्रत्ययानां विधानं भवति. तदर्थमेव दीयते धीयते क्रियते तत्र ते इति आत्मनेपदिरूपं दृश्यते. भावकर्मणोः इति सूत्रेण आत्मनेपदिप्रत्ययानां विधानं भवति किन्तु अत्र लट्रूपं नास्ति. विधिलिङ्गरूपं क्रियेत इति दत्तमस्ति. यस्य वर्णस्य इति संज्ञा योग्यत्वमस्ति. योग्यत्वम् इति तद्धितान्तं पदमस्ति. योग्यस्य भावः योग्यत्वं. योग्यता इति अपि वक्तुं शक्यते. केषां वर्णानाम् इति संज्ञा योग्यत्वम् अस्ति इत्यस्य ज्ञानम् अस्माकं कृते आवश्यकम्। तत् ज्ञानम् इति संज्ञाविधायकसूत्रैः दीयते। अपि च अष्टाध्याय्याम् इति संज्ञाप्रकरणस्य प्रसङ्गे अग्रिमभागे किञ्चित् दत्तमस्ति। तत्रत्यैः इति एकं पदमस्ति खलु अन्तिमे भागे, तत्रत्यैः षड्भिः सूत्रैः इति संज्ञा विधीयते इति लिखितमस्ति। तत्रत्यः इति तद्धितप्रत्ययान्तपदमस्ति। तत्र इति प्रातिपदिकं स्वीकृत्य त्यप् इति प्रत्ययस्य योजनेन, तद्धितप्रत्ययस्य योजनेन तत्रत्यः इति रूपं सिद्ध्यति। अत्रत्यः, तत्रत्यः इत्यादीनि पदानि बहु सामान्यानि।
पुनः वदतु क्षम्यतां भगिनि, तत्रत्यैः।
तत्रत्यः इति प्रथमान्तरूपं, षड्भिः सूत्रैः इति लिखितमस्ति खलु, तदर्थमेव तृतीया बहुवचनं अत्र दत्तमस्ति। तत्रत्यैः, षड्भिः सूत्रैः, तत्रत्यैः, कुत्रत्यैः, अष्टाध्याय्याम् इति संज्ञाप्रकरणे यानि सूत्राणि सन्ति तत्रत्यैः सूत्रैः इति संज्ञा विधीयते। त्यप् इति प्रत्ययः अस्ति, तद्धितप्रत्ययान्तपदम् इदम्। आहत्य षड्भिः सूत्रैः इति संज्ञा दीयते। एकं निषेधकसूत्रम्, एकलोपविधायकसूत्रमपि अस्ति। धातुभ्यः प्रत्ययाः विधीयन्ते इति मुख्यविषयः। अत्र धात्वधिकारे इमानि कार्याणि भवन्ति। प्रत्ययानां विधानं प्रातिपदिकात् अपि भवितुमर्हति, किन्तु अत्र विषयः तु धातुभ्यः प्रत्ययानां विधानम्। धातुभ्यः अनुबन्धवर्णानां निष्कासनम् एव अस्माकं प्रथमं कार्यं। निरनुबन्धरूपं साधनीयं सानुबन्धधातुतः। पश्यन्तु अत्र निरनुबन्धधातुः इति लिखितमस्ति। बन्धधातुः क्रियादिगणे अस्ति। बन्धधातोः रूपं बध्नाति, तत्र नकारस्य लोपः भवति। बन्धधातोः रूपमेव बध्नाति। अत्र बन्धधातोः रूपमेव बन्धः, किन्तु भिन्न उपसर्गाणां योजनेन भिन्नरूपाणि सिद्ध्यन्ति खलु। निर्योजनेन निर्बन्धः, निर्योगः अनुयोगः, बन्धः निरनुबन्धः, अनुबन्धः निबन्धः, निर्बन्धः प्रबन्धः, प्रतिबन्धः सम्बन्धः निरनुबन्धः। भिन्नभिन्न उपसर्गाणां योजनेन एतेषां पदानाम् अर्थाः भिद्यन्ते, इत्युक्ते अर्थपरिवर्तनं भवति उपसर्गाणां योजनेन इति एकः विषयः। अपि च एते वर्णाः तत्र किमर्थमासन्, एतेषां वर्णानां निःशासनं भवति चेत् किमर्थं तेषाम् उपस्थितिः तत्र अस्ति इति शङ्का मनसि जायते एव। तस्य कृते अत्र कानिचन उदाहरणानि अपि दत्तानि, किमर्थम् एते अनुबन्धाः तत्र सन्ति। अस्माकं सुलभावगमनाय अग्रिमे परिच्छेदे किञ्चित् लिखितम् अस्ति, तस्मिन् विषये एकवारम् अवलोकयामः। अत्र सुन्दरमहोदय, भवान् वदतु।
यदा वयम् आपणतः शाकादिकम् आनयामः तदा यथा आनयामः तथैव तस्य उपयोगं न कुर्मः। कदलीफलम् आनयामश्चेत् तस्य आवरणं निष्कासयामः, तदैव तदा एव अन्यस्थं भागं खादामः।
महोदय, अन्तस्थम्।
अन्तस्थं भागं खादामः। शाकस्य अपि कश्चन भागः निष्कास्यते, कश्चन भागः उपयुज्यते। तथैव धातूनां प्रत्ययानाम् आगमानाम् आदेशानां च विषये अस्ति। यदा वयं कोऽपि शाकाः खादितुम् आनयामः, तत्र तस्य आवरणं निष्कासनं अनिवार्यं भवति। तदर्थम् आवरणं भवति। तद् आवरणस्य उपमानमेव एतत् अनुबन्धाः आवरणरूपेण तिष्ठन्ति इति अत्र वदति। तत्र आवरणस्य निष्कासन अनन्तरं अन्तस्थम् अन्ते यो भागं यं भागं तिष्ठति तदेव वयं खादितुं योग्यं भवति। शाकस्य अपि शाकस्य अपि कश्चन भागः निष्कास्यते इति अत्र लिखितमस्ति. निष्कासनानन्तरमेव अन्तः यो भागः तिष्ठति तदेव वयं खादामः. तस्य उपमानमेव अत्र दत्तं. धातूनां प्रत्ययानाम् आगमनानां वाशेषणां च विषये तदेव अस्ति इति लिखितम् अत्र.
साधु महोदय, अत्र पश्यतु शाकाधिकम् इति लिखितमस्ति. शाकाधिकम् इति कथनेन भिन्नार्थः अस्ति, शाकाधिकम् इति कथनेन भिन्नार्थः अस्ति खलु. शाकाधिकं रूपं साधु वा नो चेत् शाकाधिकं रूपं साधु वा?
द्वयमपि साधु. शाकाधिकम् इति शाका आदि येषां के इति रूपं भवति. शाकः अन्य किमपि वस्तु तद् तत्सर्वं भवति शाक आदि. शाक अधिकम् इति रूपम् अन्य अर्थः बोधते. यथा शाकाधिकम् इति अधिकं शाकं प्रभूतं शाकम् इति वर्ण्यते.
प्रभूतं शाकम् इत्यपि साधु एव, किन्तु द्वयोः अर्थः भिन्नः. शाकाधिकं शाकाधिकम् अत्र कदलीफलस्य उदाहरणं दत्तमस्ति. कदलीफलस्य आवरणम् इत्युक्ते त्वचः निष्कासनं कुर्मः, अन्तस्थं फलम् एव खादामः. अन्तस्थः इति पदमस्ति, वयं सर्वे जानीमः खलु, गृहस्थः इव अत्र अन्तस्थः भागः, अन्तस्थं भागं खादामः. किमर्थम् एतद् उदाहरणं दत्तमस्ति पुनः वदतु.
वयं प्रथमं कदलीपदस्य त्वक् निष्कास अनन्तरमेव अन्तः यो भागः तिष्ठति तत् खादितुं योग्यं भवति. अन्तस्थं वस्तु एव खादितुं योग्यं भवति. तत् कारणेन कदलीफलस्य उदाहरणं दत्तमस्ति अत्र. शाकस्यापि किञ्चित् यथा पत्रमस्ति, पत्रमस्ति किल, पर्णानि अस्ति किल, पर्णानि अपि तस्य मूलतः निष्कासनं भवति. तदनन्तरमेव अहं पर्णानि एव अहं खादितुं योग्यं भवति. तत् समानमेव कदलीफलस्य उदाहरणम् अत्र
दत्तम्. उत्तमं, तदेव कदलीफलस्य उदाहरणं बहु समीचीनम् अस्ति. इत्युक्ते धातुभ्यः अनुबन्धवर्णानां निष्कासनम् अनिवार्यं करणीयमेव. अत्र निष्कासनम् इत्युक्ते डिस्कार्डिङ्ग् इति अर्थः. गेटिङ्ग् रीड् आफ़् इट् एस् इट् इस् नो लाङ्गर् डिसैरबल्, एस् इट् इस् नो लाङ्गर्
भासते. भासते इति धातु अत्र विहितः किल,
कस्
भासते इति रूपं भवति किल आत्मनेपदिरूपम्.
पार्थक्यम् इति
वदामः वा? पृथक्करणम् अनुबन्धानां प्रयोजनमस्ति. यद्यपि तेषां निष्कासनं भवति तथापि तेषां प्रयोजनमस्ति. पूर्वमेव वयं दृष्टवन्तः शप् इत्यस्मिन् शकारपकारयोः अनुबन्धलोपानन्तरम् अकारः एव शिष्यते, किन्तु शकारपकारयोः प्रयोजनमस्ति अस्माभिः दृष्टमेव. तृतीयपरिच्छेदे इतोपि किञ्चित् लिखितमस्ति तस्मिन् प्रसङ्गे. इदानीं नरेश महोदय भवान् पठतु.
प्रश्नः उदेति, अनुबन्धाः किमर्थं युज्यन्ते पाणिनिना यदि तेषां लोपः भवति एव? अत्र अर्धमात्रा लाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणः इत्युच्यते. अर्धमात्रायाः अपि व्यर्थता न भवति, अनुबन्धानाम् अर्थाः सन्ति, तेषां प्रयोजनानि कार्याणि च सन्ति. अस्मिन् विषये एतावता अस्माभिः किञ्चित् दृष्टम्. अग्रे गत्वा इतोपि बहु किमपि द्रक्ष्यामः. अधुना तावत् अवगम्य गम्यताम् यथा वयं यदा आपणतः वस्तूनि आनयामः तर्हि यथा तस्मिन् एव रूपे तेषाम् उपयोगं न कुर्मः तथैव धातूनां प्रत्ययानां च स्थितिः अपि अस्ति तेषां विकृतिं साधयित्वा उपयुञ्जमहे अत्र दत्तं अनुबन्धा किमर्थं युज्यन्ते अनुबन्धा अनन्तरं लोपः भवति तस्य योजनं कथं कुर्मः अहं न जानामि अर्धमात्रा लाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः इत्युच्यते तत् अहं न जानामि परन्तु अर्धमात्रा तस्य अपि उपयोगः अस्ति तत् व्यर्थं नास्ति अत्र वयं द्रक्ष्यामः किमर्थम् अनुबन्धाः सन्ति परन्तु किमपि वस्तूनि मूलरूपे तो उपयोगं न कुर्मः तस्य अनावश्यकं धातु निष्कासनम् आवश्यकमस्ति किमपि विकृतिम् अपि आवश्यकमस्ति तदा तस्य उपयोगं कुर्मः
साधु तदेव महोदय साधु उक्तवान् अत्र पश्यन्तु वैयाकरणाः इति लिखितमस्ति सम्यक् रीत्या लिखितमस्ति तत्र केवलम् एकः एव यकारः लेखनीयः केचन जनाः वैयाकरणाः इति कथनेन तत्र यकारद्वयं लिखन्ति किन्तु तत्रूपम् असाधु अत्र समीचीनतया लिखितमस्ति वैयाकरणः तत्र एकः एव यकारः लेखनीयः अर्धमात्रा लाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणाः एतत् प्रसिद्धं वाक्यमस्ति प्रसिद्धोक्तिः यदा पुत्रोत्सवः भवति पुत्रः जायते अथवा वैयाकरणः पुत्रवान् भवति तदा यादृशं सन्तोषं सः अनुभवति तादृश आनन्दमेव अर्धमात्रालाघवेन वैयाकरणः प्राप्नोति अस्मिन् प्रसङ्गे किञ्चित् आङ्ग्लभाषया वक्तुमिच्छामि ग्रमेरियन्स् रिजाय्स् ओवर् सेविङ्ग् इवन् हाफ् आफ् य मात्रा इन् ए सूत्रं दे रिजाय्स् द सेम् वे ओवर् द बर्त् आफ् य सन् वेन् दे हेव् ए सन् दे एन्जाय् इट् इन् द सेम् वे ग्रमेरियन्स् रिजाय्स् ओवर् सेविङ्ग् इवन् ए हाफ् मात्रा in a sutram that's what they generally do even though it sounds like an exaggeration this is a fact this indicates the purposiveness of every single utterance of the sutrakara vyakarane sutrani santi vyakaranah sarvada sutreshu laghavam icchanti precision is the highest requisite in sutras sutreshu laghavam icchanti sutreshu pratyekam varnasya prayojanam asti एवमेव इत्संज्ञकवर्णानाम् अपि प्रयोजनमस्ति
भगिनि लाघवम् इति पदम् अत्र किमर्थम् उपयुज्यते लाघवं लघुत्वम् इति अर्थः किल लाघवम्
आं महोदय अत्र योगार्थः भिन्नः रूढार्थः भिन्नः लघोः भावः लाघवं तद्धितप्रत्ययान्तशब्दः तस्मिन् स्थाने लघुत्वं लघुता इति पदानि अपि योजयित्वा वक्तुं शक्नुमः किन्तु लोके लाघवम् इति पदस्य अर्थः भिन्नरीत्या तस्य प्रयोगः भवति यथा कुशलस्य भावः कौशलं कुशलं तत्रापि योगार्थः भिन्नः रूढार्थः भिन्नः इदानीं लोके लाघवम् इत्युक्ते स्किल् इत्यस्मिन् अर्थे प्रयुक्तमस्ति किन्तु तस्य अर्थः तु लघोः भावः इति लाघवम् अत्र विषयः कः संस्कृतव्याकरणे विशेषतया अष्टाध्याय्यां सर्वत्र सूत्रेषु लाघवमिच्छति पाणिनिः प्रत्येकं सूत्रं लघु भवेत् लघु स्यात् इति एतादृशी स्थितिः दृश्यते सूत्राणि परिशीलयामश्चेत्। तादृशं लाघवं पाणिनिः इच्छति चेत् किमर्थम् एतेषाम् अनुबन्धानां स्थापनं कृतवान् अथवा एते अनुबन्धवर्णाः किमर्थं तत्र स्थापिताः इति प्रश्नः। एकं वाक्यम् अस्ति खलु अस्मिन् परिच्छेदे, अर्धमात्रायाः अपि व्यर्थता न भवति सूत्रेषु। सूत्रेषु अर्धमात्रायाः अपि व्यर्थता न भवति। व्यर्थता इति पदमपि तद्धितप्रत्ययान्तपदम् एव। विगतः अर्धः यस्मात् सः, व्यर्थः इति सामान्यपदमेव, तस्य विग्रहवाक्यं विगतः अर्थः यस्मात् सः। सूत्रेषु प्रत्येकं वर्णस्य प्रयोजनमस्ति, प्रत्येकं वर्णः निरर्थकं मा भवतु, तस्य निष्प्रयोजनं मा भवतु, प्रयोजनमस्ति इति एव अत्र लिखितमस्ति। अनुबन्धानां प्रयोजनानि सन्ति, अनुबन्धानां कार्याणि सन्ति। एतावता इति पदमस्ति खलु अत्र, एतावता इति पदमपि तद्धितप्रत्ययान्तपदमेव। यावत् तावत् एतावत् इमानि त्रीणि पदानि एकेन विशिष्टसूत्रेण साधितानि। तत्र यत् इति पदात् यावत्, तत् इति पदात् तावत्, एतत् इति पदात् एतावत् इति रूपं सिध्यति। अत्र एतावता इति तृतीयान्तं पदमस्ति। महोदय वदतु, अवगम्यताम् इति कीदृशं पदम्?
अवगम्यताम् तत्तु लोट्लकार।
उत्तमम्। अपि च
अधुना तावत् अवगम्यताम्। वयं तावत् जानामः।
अवगम्यताम् इति कर्मणि लोट् अस्ति, तावत् अवगच्छन्तु इति अर्थः। अत्र कर्मणि लोट् रूपं दत्तमस्ति। अन्तिमे वाक्ये तेषां विकृतिं साधयित्वा उपयुञ्ज्महे। विकृतिः किञ्चित् वदतु, विकृतिः इति पदस्य प्रसङ्गे।
विकृतिः परिवर्तनं कृत्वा साधयित्वा उपयुञ्ज्महे, तत्तु उत्तमपुरुष बहुवचनं उपयुञ्ज्महे।
उत्तमं। कृतिः इति पदं क्रूधातुतः क्तिन् प्रत्ययस्य योजनेन निर्मितं पदं कृतिः। क्तिन् प्रत्ययान्तरूपाणि नित्य स्त्रीलिङ्गपदानि भवन्ति। कृतिः, मतिः, स्थितिः इत्यादीनि क्तिन् प्रत्ययान्तरूपाणि सन्ति। अत्र विकृतिः, अत्र वि इति उपसर्गस्य अर्थः तु विशेषरीत्या अथवा विशेषेण। क्रूधातुतः क्तिन् प्रत्ययस्य योजनेन, क्तिन् इति कथनेन नकारस्य इति संज्ञा भवति हलन्त्यं सूत्रेण, ककारस्य इति संज्ञा लशक्वतद्धिते इत्यनेन भवति, ति एव अवशिष्यते। मतिशब्दवत् तस्य रूपाणि लेखनीयानि। उपयुञ्ज्महे इति उप उपसर्गपूर्वकः युजिर् इति एकः धातुः अस्ति, रुधादिगणीयधातुः युजिर् अस्ति। तत्रापि इर् इत्यस्य इति संज्ञा करणीय। लौकिकधातुः युज् अस्ति, उपयुञ्ज्महे। रुधादिगणीयधातुः अस्ति इति कारणतः किञ्चित् वैशिष्ट्यम् अस्ति अस्मिन् पदे। उपयुञ्ज्महे उत्तमपुरुष बहुवचनरूपं, सः धातुः उभयपदी धातुः, आत्मनेपदीरूपम् अत्र दत्तमस्ति। युङ्क्ते, युञ्जाते, युञ्जते, युङ्क्षे, युञ्जाथे, युङ्ध्वे, युञ्जे, युञ्ज्वहे, युञ्ज्महे। अग्रिमे परिच्छेदे किं लिखितमस्ति? निर्मला भगिनी भवती पठतु।
एवमपि ध्येयं लोके कतिचन पदार्थाः तादृशाः सन्ति यथा आनयामः तथैव प्रयोगं कुर्मः। धातवः प्रत्ययाः अपि तादृशाः केचन सन्ति येषु अनुबन्धाः न भवन्ति, यथा भूधातुः। भू सतायां तत्र कोऽपि अनुबन्धः नास्ति। प्रत्ययेषु यथा अप्रत्ययः तत्र अनुबन्धः नास्ति। तर्हि अत्र मूलधातुः कः? अपि च अनुबन्धानां निष्कासनानन्तरं किम् अवशिष्यते इति प्रथमम् अवगन्तव्यम्। परं तस्मात् धातोः विहितः यः प्रत्ययः अस्ति तस्मिन् अपि अनुबन्धाः के किं च अवशिष्यते इति विज्ञानम् अस्माकं भवेत्। तदा एव प्रक्रिया अग्रे अनुवर्तते। वृत्तान्ते डुपचश् पाके इति मूलस्वरूपं पचि इति क्रियापदम्। तत्र सामान्यतया धातुः पच् इति वदामः, परन्तु मूलतया डुपचश् इति स्वरूपं वर्तते। तत्र केचन अनुबन्धाः सन्ति, आरम्भे डु, अन्ते शकारः अपि च चकारोत्तरवर्ती अकारः, चकारात् उत्तरं वर्तते इति चकारोत्तरवर्ति। वर्ति इत्यस्य प्रातिपदिकं वर्तिन् वृत् धातोः। त्रयाणाम् अपि अनुबन्धानाम् इत्संज्ञा भवति, परं लोपः भवति, पच् इत्येव अवशिष्यते। ततः परम् अस्माभिः प्रत्ययः कः इति चिन्तनीयं यथा तव्यत्। तत्र तकारस्य इत् संज्ञा लोपः च तव्य इति अवशिष्यते। तर्हि पच् प्लस् तव्य पच् योग तव्य इति स्थितिः। एतादृश्यां स्थित्याम् इदानीं कार्यस्य आरम्भं भवति, येन पक्तव्यम् इति रूपं निष्पद्यते। निष्पद्येत क्षम्यतां भगिनि। अत्र एवम् यथा पूर्वम् उक्तं तदा सामान्यतया धातुः अथवा प्रत्ययः अस्ति चेत् अनुबन्धवर्णाः अस्ति, किन्तु केचन धातुषु प्रत्ययेषु अनुबन्धाः नास्ति इति स्थितिः अपि अस्ति। उदाहरणं यथा भूधातुः, भूधातु सतायां कोऽपि अनुबन्धः नास्ति। एवमेव अप्रत्यय विषये अपि अनुबन्धः नास्ति इति उच्यते।
तत्र किञ्चित् स्थगयतु। अत्र ध्येयम् इति पदं लिखितमस्ति, ध्येयम् इत्यस्य पदस्य प्रसङ्गे वक्तुमिच्छति वा?
ध्येयं धातु कर्मणि रूपम् अस्ति ध्येयं, दत्तम् अस्ति इति अर्थः।
अत्र किं वक्तव्यं, किमर्थं पृच्छन्ती अस्मि?
योग्यं वा, धातुं योग्यं वा ध्येयं?
गतसप्ताहे एकं करपत्रं प्रेषितवती, अवधेयं पदम्
अस्तु भगिनि, ध्येयम् इति रूपं धातु अस्ति। धातु इय इति प्रत्ययः गुणकार्यं भूत्वा धे योगः
तथा नास्ति भगिनि, एकवारं शृणोतु। अत्र ध्येयम् इति पदमस्ति खलु, यत् प्रत्ययान्तरूपम् अवधेयम् इति कथनेन अव उपसर्गपूर्वकः धा धातुतः यत् प्रत्ययस्य योजनेन निर्मितं पदं, गते सप्ताहे एव करपत्रं प्रेषितवती। अत्र धा इति दीर्घ आकारान्तधातुः अस्ति खलु, धा इति कथं धेय भवति इति प्रश्नः उदेति। तत्र एकं विशिष्टं सूत्रमस्ति, ईद्यति इति सूत्रमस्ति। तेन सूत्रेण यत् प्रत्यये परे धा धेय भवति। ध्येयम् इति पदस्य प्रसङ्गे एकवारं करपत्रं पश्यन्तु, अस्मिन् परिच्छेदे किं लिखितं, कतिचन पदार्थाः यथा आनयामः तथा प्रयोगं कुर्मः, कदलीफलम् इव त्वचः निष्कासनम् अनावश्यकम्। इत्युक्ते केचन पदार्थाः यथावत् तेषाम् उपयोगं कर्तुं शक्नुमः तथा एव अत्र केचन धातवः निरनुबन्धाः, उदाहरणार्थं भूधातुः अस्ति, अनुबन्धवर्णाः भूधातौ न सन्ति, तथा एव आप्रत्ययः अस्ति, तस्मिन् प्रत्यये अपि अनुबन्धवर्णाः न सन्ति. भवन्तः जानन्ति वा आप्रत्ययान्तरूपं किमपि वक्तुं शक्नुवन्ति वा? आप्रत्ययस्य योजनेन साधितं पदं कोऽपि वदतु. अत्र मम प्रश्नः तु आप्रत्ययस्य योजनेन निर्मितं एकं पदं वक्तव्यम्.
आगच्छ
प्रत्ययस्य प्रसङ्गे उक्तमस्ति.
पठ् योग अयोगति पठति.
पठ् शप् भवति खलु
भगिनी वदतु.
न जानामि भगिनि, किन्तु अर्थः अवगमनम् अस्ति, किन्तु अप्रत्यय न जानामि भगिनि.
प्रत्ययेषु एकः प्रत्ययः अस्ति आ इति प्रत्ययस्य नाम, तस्मिन् प्रत्यये अनुबन्धवर्णाः न सन्ति, तस्य प्रत्ययस्य योजनेन किं पदं साधितं, किं पदं निर्मितम्, एकं पदम् उदाहरणम् अस्माभिः ज्ञातव्यं. पठति इत्यस्मिन् आ इति कथनेन आ कुतः आगतः, शप् इत्यस्मात् आगतः. मूलप्रत्ययः तु शप् अस्ति, शप् इत्यस्मात् आ आगतः, किन्तु अत्र स्वयं प्रत्ययः एव आ अस्ति. इदानीम् अग्रिमे परिच्छेदे किं लिखितं वदतु.
अग्रिमे परिच्छेदे यदा मूलधातुः अस्ति तस्य अनुबन्धानां निष्कासनं कृत्वा प्रथमं करणीयम् एव. परं शेषः भागः एव धातुः भूत्वा तस्य योगप्रत्ययः अस्ति. प्रत्ययस्य अनुबन्धाः अपि निष्कासनं भवति एव इति एकः इति स्थितिः आवश्यकं, तस्य अवगमनार्थम् अपि आवश्यकं भवति. यथा मूलरूपम् अस्ति स्वयमेव मूलरूपम् अहं प्रयोगं धातु वा प्रत्ययेषु वा आदेशेषु वा आगमनेषु वा मूलरूपं साक्षात् मूलरूपं प्रयोगं कर्तुं न शक्यते. अतः अनुबन्धवर्णस्य निष्कासनं कृत्वा एव लौकिकरूपं स्वीकृत्य उपयोगं कर्तुं शक्यते इति अस्ति. उदाहरणं डुपचष् इति धातुः मूलरूपं भवति, तस्य डुपचष् इति धातोः तस्य सूत्रम् अस्ति, अतः आदिर्निटुडवः इति सूत्रेण डु वर्णस्य निष्कासनं भवति. हलन्त्यम् इति सूत्रेण शकारस्य लोपः अपि भवति. छ इति भागम् अस्ति, तस्य अकारः अस्ति, आङ्कारः अस्ति, अनुनासिक अकारः अस्ति, अतः तस्य इत्संज्ञा भूत्वा तस्य लोपः अपि भवति. उपदेशे अजनुनासिक इति सूत्रैः, अतः त्रीणि सूत्रैः उपयुज्य अनुबन्धनिष्कासनं कृत्वा लौकिकरूपम् अवशिष्यभागं पच् एव अवशिष्यते. अतः पच् रूपम् एव वयं स्वीकृत्य उपयोगं कर्तुं शक्यते इति लिखितम् अस्ति.
तदेव अत्र एकं पदमस्ति खलु, चकारोत्तरवर्ति, चकारात् उत्तरं यद्वर्तते तदेव चकारोत्तरवर्ति, यत् चकारात् उत्तरं वर्तते तदेव चकारोत्तरवर्ति. तत्र प्रातिपदिकं चकारोत्तरवर्तिन्, वृत्तधातोः रूपमेव णिनि प्रत्ययस्य योजनेन वर्तिन् इति प्रातिपदिकं सिद्ध्यति. नकारान्तप्रातिपदिकं प्रथमान्तं पदं वर्ति अत्र समस्तपदमस्ति चकारोत्तरवर्ति. भगिनी एकवारं प्रथमाविभक्ति रूपाणि वदतु. चकारोत्तरवर्ति
वर्ति वर्तिन् वर्ति वर्तिनि वर्तिनि
न चकारोत्तरवर्ति इति समस्तपदस्य त्रीणि रूपाणि वक्तव्यानि. साधु उक्तवती चकारोत्तरवर्ति चकारोत्तरवर्तिनौ
वर्तिनः
इति रूपाणि. गुणीशब्दवत् रूपाणि भवन्ति. डुपचांश् इति धातुतः डु इत्यस्य इति संज्ञा भवति, शकारस्य इति संज्ञा भवति. अनुनासिक अकारः, अकारस्य उपरि चन्द्रबिन्दुचिह्नम् अस्ति, तदर्थम् अनुनासिक अकारस्य इत् संज्ञा उपदेशजुन्नासिक इत् इति सूत्रेण भवति. निष्पद्येत इति एकं पदम् अस्ति, कोऽपि वदतु निष्पद्येत.
निष्पद्येत पूर्वम् उक्तवती खलु भगिनी, क्रियेत एवमेव कर्मणि रूपं
न न
उपसर्गपूर्वक पद् धातोः विधिलिङ्ग् 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 रूपं
कर्मणि नास्ति.
कर्मणि नास्ति वा?
विधिलिङ्ग् रूपमेव.
निष्पद्यते
लक्ष्मी भगिनी वा वदतु.
निष्पद्यते इति लट्लकाररूपं, निष्पद्येत इति विधिलिङ्ग् प्रथमपुरुष एकवचनं. निष्पद्येत निष्पद्येयातां निष्पद्येरन्
निस् इति उपसर्गः अस्ति. पद् धातोः रूपमेव पद्येते, आत्मनेपदि दिवादिगणे अस्ति, या श्रूयते तदर्थमेव पद्यते इति दिवादिगणीयधातोः रूपमस्ति. किन्तु अत्र पदं निष्पद्येत इति कर्तरी विधिलिङ्गलकाररूपमस्ति. पद्येत पद्येयातां पद्येरन् इत्यादीनि रूपाणि भवन्ति. अस्मिन् परिच्छेदे किम् उक्तमस्ति? धातुतः अनुबन्धवर्णानां निष्कासनं भगिनी उक्तवती एव तस्मिन् प्रसङ्गे. पश्चात् धातुं स्वीकृत्य रूपं साधनीयम्. अत्र रूपं साधयितुं तव्यत् प्रत्ययस्य उदाहरणं दत्तमस्ति. सुजाता भगिनी वदतु, तव्यत् प्रत्ययस्य योजनेन अत्र पक्तव्यं तस्मिन् प्रसङ्गे वदतु.
पक्तव्यं
अस्य परिच्छेदस्य अन्तिमभागे आदौ धातुं स्वीकृत्य धातुतः लौकिकधातोः रूपं तत्र सिद्धम् अस्ति, धातुः सिद्धः. अपि च प्रत्ययस्य प्रसङ्गे अपि उक्तमस्ति कृत् प्रत्ययः
भवति. देन् तव्यत् प्रत्ययस्य हलन्त्यम् इत्यनेन तकारस्य लोपः भवति, तव्य एव अवशिष्यते, पक्तव्य भवति, पक्तव्य भवति. तदेव भगिनी
तदेव पच् धातुं स्वीकृत्य तव्यत् प्रत्ययं योजयामः. तव्यत् इति प्रत्ययः कृत् प्रत्ययः अस्ति. कृदन्तपदनिर्माणम् एव अत्र लिखितम् अस्ति. तव्यत् इत्यस्मिन् प्रत्यये तकारस्य इति संज्ञा हलन्त्यमित्यनेन भवति. तत्र निरनुबन्धप्रत्ययः तव्य. अधुना प्रत्ययः अपि सिद्धः, धातुः अपि सिद्धः. आदौ धातुभ्यः अनुबन्धानां निष्कासनं, पश्चात् प्रत्ययेभ्यः अपि अनुबन्धानां निष्कासनं. इदानीं कार्यस्य आरम्भः भवति, कार्यस्य आरम्भणं भवति. कार्यम् इत्युक्ते किं कार्यम्? अङ्गकार्यं वा भवतु, सन्धिकार्यं वा भवतु, एतादृश्यां स्थित्यां कार्यस्य आरम्भः भवति. इत्युक्ते एतत् सर्वम् आदौ करणीयं. पच् योगः तव्यत्. पच् इति कथनेन अन्ते चकारः अस्ति, तव्यत् इत्यस्मिन् आदौ तकारः अस्ति इति कृत्वा एकं विशिष्टं सूत्रं कार्यं करोति. चोः कुः इति सूत्रमस्ति. स्थितस्य चकारस्य ककारादेशः भवति, तेन पक्तव्य इति प्रातिपदिकमस्ति, पक्तव्यम् इति रूपं भवति. पच् अस्ति इति कारणतः पक्तव्यं, वच् अस्ति चेत्
वक्तव्यं,
मुच् अस्ति चेत्
उक्तव्यं,
उत्तमं मुच् अस्ति चेत् मोक्तव्यं मुच् धातोः रूपं मुञ्चति अस्ति मुच् मोक्षणे इत्यस्मिन् अर्थे एकः धातुः अस्ति मुच् धातुतः तव्यत् प्रत्ययस्य योजनेन मोक्तव्यं सिच् अस्ति चेत् सेक्तव्यं रिच् अस्ति चेत् रेक्तव्यं गुणकार्यं भवति रिच् अस्ति चेत् रेक्तव्यं मुच् अस्ति चेत् मोक्तव्यं मुच् धातुः उदुपधधातुः उपधायां ह्रस्व उकारः अस्ति इति कारणतः गुणकार्यं भूत्वा मोक्तव्यम् अत्र रिचि सिचि मुचि एते धातवः इगुपधाः तदर्थं पुगन्तलघुपधस्य च सूत्रेण गुणकार्यं भूत्वा रिच् रेच् भवति मुच् मोच् भवति पश्चात् चोहुकुः इति सूत्रेण ककारादेशः भवति झलि परे झलिपरे ककारादेशः इत्युक्ते अत्र यः तकारः अस्ति सः तकारः झल् प्रत्याहारस्थवर्णः इति कृत्वा चकारस्य स्थाने ककारादेशः भवति तेन पच् पक् भवति पश्चात् वर्णमेलनेन पक्तव्यम् अत्र लक्ष्मीभगिनी भवती पठतु
अतः धातुपाठे अस्माकं प्रथमं कार्यम् इत् संज्ञा विधानं निबन्धलोपः च तदर्थम् इत्संज्ञा प्रकरणम् अस्ति तत्र प्रथमसूत्रस्य प्रसङ्गे किञ्चित् वक्तव्यम् अस्ति विशेषः तदा सर्वाणि सूत्राणि अवलोकयाम धातुपाठे अस्माकं प्रथमं कार्यं वयं प्रथमतया विधानम् इत्संज्ञाविधानं निबन्धलोपः च अनुबन्धानां लोपः च करणीयं तदर्थम् इत्संज्ञाप्रकरणम् अस्ति प्रथमसूत्रस्य प्रसङ्गे किञ्चित् वक्तव्यम् अस्ति विशेषः तदा सर्वाणि सूत्राणि अवलोकयामः
अत्र वक्तव्यम् इति पदमस्ति खलु पूर्वं पक्तव्यं तस्मिन् प्रसङ्गे उक्तमस्ति इदानीं वक्तव्यं विषयं वदतु
वच् योग तव्यत् वच् धातुः
वच् धातुतः तव्यत् प्रत्ययस्य
योजनेन वक्तव्यम्
उत्तमं तत्र चकारस्य स्थाने ककारः झलि परे आयाति झल् इति प्रत्याहारः अस्ति झल् प्रत्याहारे अनुनासिकवर्गीयव्यञ्जनानि त्यक्त्वा सर्वाणि वर्गीयव्यञ्जनानि झल् प्रत्याहारे सन्ति तकारः झल् प्रत्याहारस्थवर्णः इति कृत्वा तत्र झलि परे चोहोकुः सूत्रेण चकारस्य स्थाने ककारः आयाति प्रकरणम् इत्युक्ते एकार्थप्रतिपादकग्रन्थांशः अग्रे वदतु
उपदेशे जनुनासिकः इत्यस्मिन् न कोऽपि अनुवृत्तिः सर्वं सूत्रे एव वर्तते इत्यस्मिन् न कोऽपि अनुवृत्तिः सर्वं सूत्रे एव वर्तते
भवती
दृष्टवती वा
अहं प्रिण्ट् औट्
चिन्ता मास्तु भगिनि इदानीं दर्शना भगिनी भवती पठतु
उपदेशे जनुनासिक इत् प्रथम प्रथमाध्यायस्य तृतीयपादस्य द्वितीयं सूत्रम् इति प्रथमम् इत्संज्ञा विधायकं सूत्रम् उपदेशावस्थायां या अच् अनुनासिकः अस्ति तस्य इत्संज्ञां करोति इदं सूत्रम् उपदेशः नाम आदेशः आगमो वा अनुनासिकः नाम यस्मिन् अचि इति अनुनासुमापि अनुनासिक दृश्यते किमर्थमित्युक्ते एकं स्वरविज्ञाने ज्ञानं ज्ञायते स्म
भवत्याः दूरवाणी सम्यक् नास्ति भगिनी सम्यक् श्रोतुं न शक्नोमि क्लारिटी नास्ति नरसिंह हेग्डे महोदय भवान् पठतु
उपदेशे जनुनासिकैत् इति प्रथमम् इत्संज्ञाविधायकं सूत्रम् उपदेशावस्थायां यः चनुनासिकः अस्ति तस्य इत् संज्ञा करोति इदं सूत्रम्। उपदेश नाम धातुः, प्रत्ययः आदेश आगमे वा आगमो वा। अनुनासिक अच् नाम यस्मिन् अचि इति अनुनासिक चिह्नम् अस्ति। बृहद्धातुकुसुमाकरे पश्यन्ति चेत् धातुषु न कुत्रापि अनुनासिकचिह्नं दृश्यते। किमर्थम् इत्युक्ते एकं पूर्णं स्वरविज्ञानं वर्तते, प्राचीनकाले इदं विज्ञानं ज्ञायते स्म, अद्य प्रायः इदं विज्ञानं न लभ्यते। अतः बृहद्धातुकुसुमाकरे पश्यति चेत् बृहद्धातुकुसुमाकरे पश्यति चेत् कुत्रापि अनुनासिकचिह्नं न दृश्यते। किमर्थम् इत्युक्ते एकं पूर्णं स्वरविज्ञानं वर्तते, प्राचीनकाले इदं विज्ञानं ज्ञायते स्म, अद्य प्रायः इदं विज्ञानं न लभ्यते। अतः अस्मिन् आधुनिककाले स्वरविषये अस्माकं क्लेशः, तत् ज्ञानस्य अभावे बृहद्धातुकुसुमाकरेपि अनुनासिकचिह्नानि न दत्तानि, किन्तु वयं फलं दृष्ट्वा अनुमानं कर्तुं शक्नुमः यत्र अनुनासिकचिह्नं स्यात्। नाम यत्र मूलधातौ कश्चन स्वरः आसीत् यत् लौकिकधातौ नास्ति, तत्र अवगम्यते यत् सः स्वरः अनुनासिकः आसीत्। अतः उपदेशे जनुनासिक इति सूत्रेण तस्य लोपः जातः। अद्य इदमित्तम् इति वक्तुं कश्चन अन्योपायः नास्ति, ऊहया एव बोध्यं। यदा गमलृधातुः अत्र ऋ इति अच्छुवर्ण अनुनासिकः अस्ति, अतः उपदेशे जनुनासिक इति सूत्रेण तस्य इत्संज्ञा भवति। तस्य लोपः इत्यनेन लोपः गम् इति अवशिष्यते। ऋ अनुनासिकः अस्ति इति कथं जातं फलं दृष्ट्वा? प्रक्रियायां लोके च गम् इत्येव दृश्यते, अतः ऋ इत्यस्य लोपः जातः चेत् उपदेशेनासिक इत्येन सूत्रेण अहरति स्म, अतः ऋ अनुनासिकः स्यात् इति अनुमानम् अस्माकम्। अत्र उपदेशे जनुनासिक इत् सूत्रस्य अर्थं दत्तम् अस्ति। सूत्रम् अस्ति संज्ञासूत्रम्। उपदेश अवस्थायां इत्युक्ते मूलरूपं यः च अनुनासिक स्वर अनुनासिकः अस्ति तस्य इत्संज्ञा करोति इदं सूत्रम्। यः कोऽपि स्वरः अनुनासिकः अस्ति चेत् तस्य लोपः भवति, तस्य इत्संज्ञा भवति, तदनन्तरं लोपः भवति सूत्रस्य अनुसारम्। उपदेश नाम धातु, प्रत्यय आदेश वा आगम वा। उपदेश इत्युक्ते धातु भवितुमर्हति, प्रत्ययं भवितुमर्हति, आदेशं भवितुमर्हति, आगमे भवितुमर्हति। अनुनासिक अच् नाम यस्मिन् अचि इति अनुनासिकचिह्नं वर्तते। एकनिमिषं, पुनः जातः। अत्र अहं वदामि, अत्र अनुनासिक इत्यस्य अर्थं दत्तमस्ति। पूर्वतनकाले एक स्वरविज्ञानम् आसीत्, तत्र अनुनासिकचिह्नं चन्द्रकलाबिन्दुः आसीत्, परन्तु अद्यतनकाले तस्य विज्ञानस्य अभावं जातः। वयं कथं अनुनासिकचिह्नं आसीत् केवलम् अनुमानेन, इत्युक्ते मूलरूपम् और् लौकिकरूपं दृष्ट्वा एव अहं ऊहां कर्तुं शक्नुमः। अत्र गमलृ धातुः अस्ति, परन्तु लौकिकरूपे अस्ति गम् धातु एव, गमलृ नास्ति लौकिकरूपे। इत्यनेन वयम् अनुमानं कर्तुं शक्नुमः ऋकारस्य स्वरस्य अनुनासिकचिह्नं आसीत् इति। केवलं फलं दृष्ट्वा एव करणीयं, किमर्थम् इत्युक्ते अत्र आधुनिककाले स्वरविज्ञानः लुप्तः जातः, अनुनासिकचिह्नं किमपि कुत्रापि न दत्तमस्ति। केवलं मूलरूपं दर्शनीयं, लौकिकरूपं किमस्ति दर्शनीयम्, अनुमानं करणीयम्।
उत्तमं, साधु महोदय, धन्यवादाः।
धन्यवादः।
इदं सूत्रं पङ्क्तिशः महोदयेन उक्तमस्ति, पङ्क्तिशः पश्यामश्चेत् इदं सूत्रं संज्ञाविधायकसूत्रम्, अनेन इति संज्ञा दीयते कस्य इति संज्ञा भवति? अनुनासिक अचुवर्णस्य इति संज्ञा अनेन सूत्रेण दीयते. यत्र कुत्रापि अनुनासिक अचुवर्णस्य इति संज्ञा उपदेशजनुनासिक इति सूत्रेण भवति. सः स्वरः अनुनासिकः वा अननुनासिकः वा इति ज्ञातुम् अत्र स्वरवर्णस्य उपरि चन्द्रबिन्दुचिह्नं दृश्यते. तेन अवगन्तुं शक्नुमः. अहं पूर्वम् उक्तवती खलु, युवोरनाकौ इति सूत्रं ल्युडन्तपदस्य प्रसङ्गे उक्तमस्ति. अनुनासिकयकारः अस्ति, किन्तु तस्य लोपः न भवति. किमर्थं चेत् केवलम् अनुनासिक अचुवर्णस्य इति संज्ञा एव क्रियते अनेन सूत्रेण. हल्वर्णस्य न. बृहद्धातुकुसुमाकरः इति ग्रन्थस्य नाम अस्ति. बृहद्धातुकुसुमाकरे पश्यन्ति चेत् इति वाक्यमस्ति. तत्र बृहद्धातुकुसुमाकरं पश्यन्ति चेत् इति भवति वा कारकविषयः? द्वितीया विभक्त्यन्तं साधु वा, नो चेत् सप्तमी साधु एव वा? महोदय, भवान् किं चिन्तयति?
बृहद्धातुकुसुमाकरे सप्तमी एव साधु.
द्वितीया ग्रन्थम् उद्दिश्य वदामः तथा द्वितीया ग्रन्थे विद्यमान अंशं वदामः चेत् तत्र सप्तमी, एवं चिन्तयितुं शक्नुमः.
बृहद्धातुकुसुमाकरे धातवः सन्ति, धातूनां सङ्ग्रहः अस्ति अस्मिन् ग्रन्थे.
बृहद्धातुकुसुमाकरः इति ग्रन्थः, ग्रन्थं पश्यामः इति चेत् तत्र द्वितीया, तत्र विद्यमानम् अंशं यदा पश्यामः तत्र सप्तमी.
उत्तमम्. बृहद्धातुकुसुमाकरे धातून् पश्यामश्चेत् तत्र न कुत्रापि अनुनासिकचिह्नं दृश्यते. किन्तु कथं जानीमः इत्युक्ते अनुमानं कृत्वा, ऊहया एव बोध्यम्. इत्थम् इति एकं पदमस्ति खलु, महोदयेन उक्तमस्ति इदमित्थम् इति वक्तुं कश्चन अन्योपायः नास्ति. अत्र इत्थम् इत्युक्ते अनेन प्रकारेण एव स्यात्, अनेन प्रकारेण एव भवति इति वक्तुम् अन्यः उपायः नास्ति. केवलम् ऊहया एव वक्तुं शक्नुमः. ऊहया बोध्यं, तदवगन्तुं गम्लूधातोः उदाहरणं दत्तमस्ति. औपदेशिकधातुः गम्लू, लौकिकधातुः गम् अस्ति. अनुनासिकलुकारस्य इत् संज्ञा उपदेशजनुनासिक इत् इति सूत्रेण भवति. तस्य लोपः इति विधिसूत्रेण गम् एव अवशिष्यते. अत्र फलं दृष्ट्वा अनुमानं कर्तुं शक्नुमः. वीणा भगिनी भवती पठतु. अनुमानम् इति अपि ल्युडन्तपदमेव. अनु उपसर्गपूर्वकः मा धातुतः ल्युट् प्रत्ययस्य योजनेन साधितं पदम् अनुमानम्.
एतदपि एतदपि ध्येयं यत् यदि स्वरः अपरेण वर्णेन सह उपस्थितः तर्हि कुत्रचित् तयोः एकं यूनिट् कृत्वा अपरेण सूत्रेण इत् संज्ञा क्रियेत. यथा डुपचश् इत्यस्मिन् डकारोत्तरवर्ती यः उकारः अस्ति सः उकारः अनुनासिकः नास्ति. तत्र डु इत्येव एकं युनिट् अस्ति, अतः अपरेण सूत्रेण इत्संज्ञा साध्येत. अग्रे पठामि.
अत्र पश्यतु साध्येत, अस्मिन् विषये वदतु.
सूत्रेण इत्संज्ञा साध्येत. साधिसन् एतदपि ध्येयं यदि स्वरः अपरेण वर्णेन सह उपस्थितः. यदा वर्णः डुपचश् अत्र डु योगे उ तत्र द्वे वर्णाः सन्ति, तत्र एकः युनिट् एव कृत्वा एकः एव युनिट् इति स्वीकृत्य तस्य निष्कासनम् एव कर्तव्यं. डु इत्येव तस्य निष्कासनं कर्तव्यम्. अत्र उ अनुनासिक उकारः नास्ति इति अत्र दत्तवन्तः. डु आदिर्नेतुडवः अत्र अग्रे अस्ति, तत् सूत्रानुसारेण तस्य दुकारस्य इत्संज्ञा भवति, तदनन्तरं तस्य लोपः भवति. अतः अपरेण सूत्रेण इत्संज्ञा साध्येत. वि आर् गेटिङ्ग् दिस् वन्
भगिनि. अपरेण सूत्रेण इति लिखितमस्ति, अपरं सूत्रं किम् अत्र?
अपरेण सूत्रेण आदिर्नेतुडवः इति सूत्रेण.
डु इत्यत्र डकारः उकारः वर्णद्वयमस्ति. डु इत्यस्मिन् यः उकारः श्रूयते सः उकारः अनुनासिकः नास्ति. समुदायस्य डु इति वर्णसमुदायस्य इत् संज्ञा एकं यूनिट् कृत्वा आदिनिटुडवः इति सूत्रेण क्रियते तत्र डुपचष् इति धातौ डु इत्यस्य इति संज्ञा आदिनिटुडवः इति सूत्रेण भवति यूनिट् कृत्वा इति तस्मिन् स्थाने घटक
भगिनि आदिनिटुडवः इति अस्ति किल आदिनिटुडवः इति अस्ति तत्र टु इति अस्ति तद् उदित्वा
आदिनिटुडवः इत्यस्मिन् टु इति टकारस्य उकारस्य द्वयोः समुदायः अस्ति उदित् नास्ति
उदित् न भवेत् इति चिन्तयामि कारणं पार्श्वे डु इति अपि अस्ति किल उदित् अस्ति तद् टु डु न वक्तव्यं किल
आम् टवर्गीयव्यञ्जनेषु डकारः अपि अन्यतमः टु इति कथनात् परं डु इति पुनः वदनस्य आवश्यकता नास्ति इति कृत्वा तत्र केवलं वर्णसमुदायः
समुदायः
भगिनि उच्चारणार्थम् अस्ति वा
उच्चारणार्थः नास्ति तत्र किं ज्ञातव्यम् आदिनिटुडवः इत्यस्मिन् सूत्रे टु डु इति दत्तमस्ति टु इति कथनेन टवर्गीयव्यञ्जनानि इति स्वीकुर्मः चेत् तत्र टठ डढण इति पञ्चव्यञ्जनानि सन्ति टवर्गे टु इति कथनेन तेषां सर्वेषां व्यञ्जनानाम् उल्लेखः भवति किन्तु पुनः तत्र डु इति कथनस्य आवश्यकता नास्ति एतत् सर्वं मनसि निधाय किम् अवगन्तुं शक्नुमः तत्र टु इति कथनेन केवलं टकार उकारयोः वर्णसमुदायः डु इति कथनेन डकार उकारयोः द्वयोः एकं यूनिट् कृत्वा समुदायं स्वीकृत्य इत्संज्ञा भवति अस्य आदिनिटुडवः इति सूत्रस्य प्रसक्तिः केवलं धातुषु एव भवति धातुषु एव एतादृशरीत्या अनुबन्धवर्णाः सन्ति यथा डुपचांश् टुवांश्वी इति एकः धातुः अस्ति तत्र केवलं वर्णसमुदायस्य इति संज्ञा करणीया अत्र उकारस्य अनुनासिकत्वं नास्ति टु इत्यत्र उकारस्य अनुनासिकत्वं नास्ति केवलं डकारः अननुनासिक उकारः अस्य वर्णसमुदायस्य इति संज्ञा आदिनिटुडवः सूत्रेण भवति न तु उपदेशजनुनासिक इति सूत्रेण किमर्थं चेत् तत्र स्थितस्य उकारस्य अनुनासिकत्वं नास्ति इति कारणतः भिन्नसूत्रेण वर्णसमुदायस्य इति संज्ञा करणीया तत्र डु इत्यत्र भगिनी अग्रे अपि पठतु
साध्येत इति विधिलिङ्ग आत्मनेपदि वा भगिनि साध्येत साध्येयतां साध्येयन् साध्येरन्
साधधातोः रूपं साध्नोति साध्यधातुः स्वादिगणीयधातुः कर्मणि विधिलिङ्गस्ति साध्येत कर्तरिविधिलिङ्गरूपं वक्तुमिच्छामश्चेत् साध्नुयात् कर्तरिविधिलिङ्ग किन्तु अत्र साध्येत कर्मणि विधिलिङ्गरूपम् इति अहं चिन्तयामि अग्रे पठतु भगिनि
तर्हि प्रथमं कार्यम् इत्संज्ञा इति तदर्थं सप्तसूत्राणि सन्ति तेषु त्रीणि सूत्राणि धातुषु अपि प्रत्ययेषु अपि नाम सर्वेषु उपदेशेषु प्रत्युज्यन्ते त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते न धातुषु अपि च एकं सूत्रं निषेधकं सूत्रम् अत्र इत्संज्ञायाः सप्तसूत्राणि सन्ति आहत्य तत्र सप्त तेषु प्रथमः त्रीणि सूत्राणि केवलं धातुषु अथवा प्रत्ययेषु अपि धातुषु प्रत्ययेषु उपदेशेषु अपि भवन्ति किन्तु अन्तिम त्रीणि सूत्राणि केवलं प्रत्ययेषु एव भवन्ति प्रयुज्यन्ते तत्र एकं निषेधकसूत्रम् अपि अस्ति
प्रथमम् उपदेशजनुनासिक इति सूत्रमस्ति सर्वेषु रूपेषु कार्यं करोति हलन्त्यमपि सर्वेषु रूपेषु कार्यं करोति तृतीयं सूत्रं न विभक्तौ तु स्मः इति निषेधकसूत्रमस्ति चतुर्थं सूत्रम् आदिनिटुडवः इति संज्ञा विधायकसूत्रमेव किन्तु आदिनिटुडवः सूत्रस्य प्राधान्यमस्ति केवलं धातुषु एव आदिनिटुडवः इति सूत्रं केवलं धातुषु एव कार्यं करोति किमर्थं
धातुषु एव प्रयुज्यन्ते न केवलम् आदेशु उपदेशस्य किम् आदिः मी तु डु इति किं वर्णसमूहः अस्ति ते सर्वे धातूनां कृते एव सन्ति अतः धातुषु एव प्रयुज्यन्ते
उत्तमम् प्रथमचत्वारि सूत्राणि पश्यामश्चेत् तेषु एकं सूत्रं निषेधकसूत्रमस्ति, अन्यानि त्रीणि सूत्राणि इति संज्ञाविधायकसूत्राणि. आदिनीटुडवः इत्यस्मिन् सूत्रे वर्णसमुदायः अस्ति, वर्णसमूहः णी टु डु इति वर्णसमुदायः. तादृशवर्णसमुदायाः केवलं धातुषु एव द्रष्टुं शक्नुमः, न तु प्रत्ययेषु. तादृशप्रत्ययः एव नास्ति यस्मिन् एतादृशवर्णसमुदायः भवेत्. तादृशप्रत्ययः नास्ति, केवलं धातुषु एव एतादृशवर्णसमूहान् द्रष्टुं शक्नुमः इति कृत्वा आदिनिटुडवः इति सूत्रं धातुषु एव, धातूनां कृते एव कार्यं करोति. इत्संज्ञाप्रकरणस्य प्रसङ्गे इतोपि लिखितमस्ति, विषयः तु परिचितः एव. एकवारं सूत्राणि अवलोक्य अभ्यासं कुर्मः. अधुना अत्र स्थगयामः. सर्वेषां धन्यवादाः.